स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयस्सह खलु तया याज्ञसेनी विवाहं पार्थप्रीत्यै पुनरपि मनाक् आस्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधाय आगतो भूः भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा ताम् अहृतकुहनामस्करी शक्रसूनुः तत्र क्रुद्धं बलम् अनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामा सहायः तत्र क्रीडन् अपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः भ्रातृत्रस्तां प्रणयविवशां देवपैतृष्वसेयीं राज्ञां मध्ये सपति जहृषे मित्रबिन्दाम् अवन्तीं सत्यां गत्वा पुनः उदवहो नग्नजिन्नन्दनां तां बद्ध्वा सप्तापि च वृषभरान् सप्तमूर्तिः निमेषात् भद्रां नाम प्रददुः अथ ते देव सन्तर्दनाद्याः तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी पार्थाद्यैरपि अकृतलवणं तोयमात्राभिलक्ष्यं लक्षं छित्त्वा शफरम् अवृथाः लक्ष्मणां मद्रकन्याम् अष्टावेवं तव समभवन् वल्लभाः तत्र मध्ये शुश्रोथत्वं सुरपतिगिरा भौमदुश्चेष्टितानि स्मृतायातं पक्षिप्रवरम् अधिरूढस्त्वमगमः वहन्नङ्के भामाम् उपवनमिवारातिभवनं विभिन्दं दुर्गाणि त्रुटितपृतुना शोणितरसैः पुरं तावत् प्राग्ज्योतिषम् अकुरुथाः शोणितपुरं मुरस्त्वां पञ्चास्यो जलधिवनमध्यात् उदपतत् सचक्रे चक्रेण प्रदलितशिराः मङ्क्षुभवता चतुर्दन्तैः दन्तावळपतिभिः इन्धानसमरं रथाङ्गेन छित्त्वा नरकम् अकरोस्तीर्ण नरकं स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजं चैकं दत्त्वा प्रजिगयिथ नागान् निजपुरं खलेन आबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणाम् अपि च धनराशिञ्च विपुलं भौमापाहृतकुण्डलं तत् अदितेर्दातुं प्रयातो दिवं शक्राद्यैः महितः समं दयितया द्युस्त्रीषु दत्तह्रिया हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमः तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेव अकृथाः कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुः लालयन् केळिभेदैः आश्चर्यात् नारदालोकितविविधगतिः तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दशदशतनयान् पाहि वातालयेशा ॐ तत्सदिति श्रीमन्नारायणीये एकाशीतितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।